एस रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रधानमन्त्रिणा सुशीला कार्किणा काष्ठमण्डप तराई मधेस द्रुतमार्गस्य प्रस्थानबिन्दोः खोकनास्थानस्य विवादम् त्यक्त्वा वैकल्पिक योजनायाम् अग्रे वर्धितुम् निर्दिष्टम् वर्तते। ललितपुरस्य खोकनास्थाने धार्मिक सांस्कृतिक सम्पत्सु आस्थायां च प्रभावः सक्ष्यतीति उक्त्वा स्थानीय समुदायस्य पक्षतः अभिरुचेः प्रकटनस्य अवस्थायां प्रधानमन्त्रिणा कार्किणा ह्य सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये बीते विमर्शने वैकल्पिक योजनायाम् अग्रे वर्धितुम् निर्दिष्टम् वर्तते। तदवसरे प्रधानमन्त्री कार्की विपुल निवेशनस्य आयोजनायाः अनिश्चयनेन आर्थिक भारः वर्धते इत्यतः शीघ्रं सञ्चालनत्वेन समाधानम् अन्वेषणीयम् इति धारणाम् व्यक्तवती। तदवसरे नेपाली सेनायाः पक्षतः आयोजनायाम् अधुनावधि विहितायाः प्रगतेः समस्यानाम् सर्वकारात् अपेक्षितानाम् विषयाणाम् च विषयैः प्रधानमन्त्री विज्ञापिता आसीत्। विमर्शने अर्थमन्त्री रामेश्वर खनालः, विधिमन्त्री अनिल कुमार सिम्हा, भौतिक पूर्वाधार यातायात मन्त्री माधव चौलागाई, राष्ट्रिय योजना योगस्य उपाध्यक्ष प्रकाश कुमार श्रेष्ठ, प्रधान सेनापतिः अशोक राज सिग्देलः, अन्य द्रुतमार्गा योजनया सम्पृक्ताः अधिकारिणश्च सहभागिनः आसन्। शेर्पा समुदायेन अद्य एतत् समुदायस्य नववर्षस्य स्वागतम् विदाय ग्याल्पो ल्होसार पर्व भव्यरूपेण समाद्रियमाणम् अस्ति। फाल्गुनमा शुक्लपक्षस्य प्रतिपदा तिथिता शेर्पा समुदायस्य नववर्षम् प्रारभ्यते इत्यतः तत्समुदायेन पर्वेदम् नववर्षत्वेन समाद्रियते। अद्यतः शेर्पा समुदायस्य त्रिपञ्चाशदुत्तरैकविंशतिशततमम् वर्षम् प्रारब्धमस्ति। अद्यतः अश्ववर्षम् प्रारभमाणम् वर्तते। लोसारपर्वणः अवसरे राजधान्याम् काष्ठमण्डपे देशस्य अन्येषु बहुषु स्थानेषु विशेषतः शेर्पा जातेः बाहुल्ययुतेषु जनपदेषु च विभिन्नाः कार्यक्रमाः समायोज्यमानाः वर्तन्ते। राष्ट्रपतिना रामचन्द्र पौडेलेन उपलक्ष्यस्मिन् ह्य राष्ट्रपति कार्यालये आयोजिते कार्यक्रमे एतादृशैः पर्वभिः समेषाम् नेपालीनाम् मध्ये परस्परम् सद्भाव सहिष्णुता बन्धुत्वानाम् भावनायाः अभिवर्धन पुरस्सरम् बृहद राष्ट्रियैकताम् इतोऽपि सुदृढाम् कर्तुम् साहाय्यम् मिलतीति उक्तमस्ति। कार्यक्रमे राष्ट्रपति पौडेलः लोसारपर्वणा सामाजिकम् पारिवारिकम् च मेलनम् विधातुम् समुदायेषु परस्परम् सम्बन्धम् सुमधुरम् कारयितुम् च सहयोगो मिलतीति विश्वासम् प्रकटितवान् वर्तते। एवमेव उपलक्ष्यस्मिन् उपराष्ट्रपतिना रामसाय प्रसाद यादवेन प्रदत्ते शुभकामना सन्देशे अनेन पर्वणा नेपाली जनतायाः आर्थिक सामाजिक रूपान्तरणेन समुन्नतस्य समृद्धस्य च नेपालस्य निर्माणाय सर्वेभ्यः प्रेरणा प्रदीयते इति विश्वासः व्यक्तो वर्तते। अवसरेऽस्मिन् प्रधानमन्त्रिणा सुशीला कार्किणा च शुभकामना सन्देशः प्रदत्तोऽस्ति। अद्य सर्वकारेण सार्वजनिकावकाशः प्रदत्तो वर्तते। कार्यवाहक प्रमुख निर्वाचनायुक्त रामप्रसाद भण्डारी निर्वाचनस्य मतस्य सर्वेक्षणं विदाय परिणाम प्रकाशनस्य कार्यं न कर्तुं संचार माध्यमान् अनुरुणादि। ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे कार्यवाहक प्रमुख निर्वाचनायुक्त भण्डारी प्रविधेः दुरूपयोगेन निर्वाचनस्य निष्पक्षतायां प्रभावसर्जनस्य सम्भावना भवतीत्यतः अत्र गभीराः भवितुम् सर्वेषां ध्यानाकर्षणं व्यददात्। असौ कृत्रिमबौद्धिकतायाः प्रविधेः प्रयोगं कृत्वा निर्मिताः सामग्रीः सामाजिकसञ्जालेषु न सम्प्रेषयितुम् तथा विधानां सामग्रीणां सम्प्रेषणे सहयोगी भूमिकां न निर्वोढुं च सर्वान् सञ्चारमाध्यमान् सम्बद्धपक्षाञ्च अन्वरुणत्। नेपाली कम्युनिष्ट दलेन स्वच्छे निष्पक्षे स्वतन्त्रे भयरहिते च वातावरणे निर्वाचनं सम्पादयितुम् निर्वाचनायोगः अनुरुद्धो वर्तते। दलेन काष्ठमण्डपे ह्य पत्रकार सम्मेलनम् आयोज्य जटिल परिस्थितौ निर्वाचनम् जायमानमस्तीत्यतः निर्वाचनायोगेन आचार संहितायाः विपरीतस्य सर्वविधानाम् गतिविधीनाम् विरुद्धे कठोरेण प्रस्तुत्या आयोगस्य भूमिका प्रभावकारिणी सम्पादनीया इति उक्तं वर्तते। पत्रकार सम्मेलने दलस्य निर्वाचन प्रचार समितेः संयोजकः अग्निप्रसाद सापकोटा वर्तमान संकटात् देशं रक्षितुं स्वाधीनतां सार्वभौमसत्तां राष्ट्रिय एकतां च सुदृढाः विधातुं स्वच्छे निष्पक्षे भयमुक्ते च वातावरणे निर्वाचनस्य सुनिश्चयनाय सर्वकारं सुरक्षा निकायान् निर्वाचनायोगम् अन्यान् सम्बद्ध पक्षान् च उत्तरदायित्ववाहिना प्रतिबद्धतां प्रकटयितुम् अन्वरुणात्। नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना झापा जनपदस्य पञ्चम निर्वाचन क्षेत्रस्य विकासं प्राथमिकतायां संस्थाप्य द्वाचत्वारिंशत् सूत्रीयं प्रतिबद्धता पत्रं सार्वजनिकृतं वर्तते। प्रतिनिधिसभायाः आसन निर्वाचनं लक्ष्यीकृत्य ह्य सार्वजनिकृते प्रतिबद्धतापत्रे सुशासनस्य भ्रष्टाचार नियन्त्रणस्य राष्ट्रियतायाः प्रवर्धनस्य भौतिक पूर्वाधार निर्माणस्य च रणनीतिक योजनाः समाविष्टाः वर्तन्ते। वन वातावरण मन्त्रालयस्य ऊर्जो जलस्रोत सेचन मन्त्रालयस्य च मध्ये ह्य समन्वयोपवेशः सम्पन्नोऽस्ति। वनमन्त्रिणः माधव प्रसाद चौलागाई इत्यस्य ऊर्जो मन्त्रिणः अनिल कुमार सिम्हाविदस्य च सहभागितायां सम्पन्ने उपवेशे ऊर्जसा जलविद्युत आयोजनया च सह सम्बद्धेषु वनक्षेत्रस्य भूमेः भोगाधिकारस्य स्वीकृतेः प्रक्रियायाः प्रक्रियागत जटिलतायाश्च कारणेन अवरुद्धानां च विषयेषु च विमृष्टं वर्तते। राष्ट्रिय परीक्षा समित्या द्वादश कक्षायाः वार्षिक परीक्षायाः समयतालिका आगामिनः वैशाख मासस्य चतुर्दश दिवसात् परीक्षायाः सञ्चालनत्वेन सार्वजनिकृता वर्तते। समितेः भक्तपुरस्य सानो ठिमीवर्तिना परीक्षा नियन्त्रण कार्यालयेन ह्य सूचनां प्रकाश्य आगामिनः वैशाख मासस्य चतुर्दश दिवसात् सप्तविंशं दिवसं यावत् द्वादश कक्षायाः निर्धारितायाः आंशिक्याश्च परीक्षायाः सञ्चालनं भवितेति ज्ञापितं वर्तते। द्वादश कक्षायाः परीक्षा प्रातः अष्टवादनात् एकादशवादनं यावत् सञ्चलितेति समित्या ज्ञापितमस्ति। एतत्पूर्वमेव अस्य वर्षस्य एसईई नाम्न्याः माध्यमिक शिक्षा परीक्षायाः आगामिनः चैत्र मासस्य एकोनविंशात् दिवसात् सञ्चालनत्वेन परीक्षा तालिका सार्वजनिकृता वर्तते।